सर्वेभ्यः नमस्कारः। शुद्धिकौमुदी कक्षां प्रति भवतां हार्दं स्वागतम्। पूर्वतनकक्षायां अन्तर्जालसम्पर्के कश्चन क्लेशः आसीत् इत्यतः कक्षा सम्यक् चालयितुं न शक्या। अतः पूर्वतनकक्षायां ये विषयाः उक्ताः तानपि किञ्चित् स्मृत्वा ततः अग्रे गच्छामः। पूर्वतनकक्षायां वयं विभक्त्यादयः इत्यस्मिन् अध्याये कांश्चन शब्दान् दृष्टवन्तः आस्म। तस्य अनुवर्तनम् इदानीं कुर्मः। प्रायः अस्माभिः भ्रमवशादेवं प्रयुज्येत वाराणसेः नाम केन वा न श्रुतम् इति। अत्र वाराणस्याः इति वक्तव्यम्, यतः वाराणसीशब्दः ईकारान्तः न तु इकारान्तः, अतः तस्य रूपाणि ईकारान्तशब्दवदेव। अतः वाराणस्याः इति प्रयोक्तव्यम्। भगवतः ध्यानं निःश्रेयसे भवति। अत्रापि अस्माकं बहूनां भ्रमः अस्ति निःश्रेयसशब्दविषये। श्रेयः इति शब्दः शान्तः नाम सकारान्तः नपुंसकश्च, किन्तु निःश्रेयसशब्दः अकारान्तः, अतः अस्माभिः निःश्रेयसाय इत्येव वक्तव्यम्। नामश्रवणमात्रेण सः भीतः, नामश्रवणमात्रादिति वक्तव्यम्। अतः सूत्रमस्ति भीत्रार्थानां भयहेतुः इति। अतः पञ्चमी अपादानं भवति इत्यतः पञ्चमी विभक्तिः भवति न तु तृतीया। नामश्रवणमात्रः भीतः इति वक्तव्यम्। बहुभ्यः दिनेभ्यः एवमेव प्रचलति इति अस्माभिः बहुधा दोषयुक्तं प्रयुज्यते। आबहुभ्यः दिनेभ्यः इति वक्तव्यम्। तथैव यदि एवं वदामः आबहुमासात् इति, आबहुमासात् एवमेव प्रचलति इति, तदपि न समीचीनम्। आबहुभ्यः मासेभ्यः इति वक्तव्यम्। आङ् इति अत्र उपसर्गः उच्यते, तस्य अर्थः अभिविधिः इति, व्याप्तिः इति। प्रायः हिन्दी इत्यादिषु भाषासु बहुदिनोसे इति प्रयोगः भवति। एतं प्रयोगमनुसृत्य अस्माभिः संस्कृतेन तथा प्रयुज्यते, किन्तु अत्र आबहुभ्यः दिनेभ्यः आबहुभ्यः मासेभ्यः इत्येव प्रयोक्तव्यम्। कार्यक्रमेऽस्मिन् सहस्राधिकाः जनाः सहस्राधिकाः आगताः आसन् इति प्रयुज्यते। कार्यक्रममेतम् इति प्रयोक्तव्यम्, यतः अत्र गम्धातुः अस्ति, सः सकर्मकः, तस्य धातोः कर्म कार्यक्रमः, गम्धातोः कर्म कार्यक्रमः, अतः कर्मणि द्वितीया इत्यनेन द्वितीया एव भवति। सर्पः बिलस्य अन्तः प्राविशत् इति वयं वदामः। अत्रापि बिलं प्राविशत् इत्येव, यतः यथा पूर्वम् उक्तम् अयं विषधातुः, सः सकर्मकः, सकर्मकम् इत्यतः तत्र बिलं कर्म भवति, कर्मणि द्वितीया भवति। अत्र सूत्रमस्ति कर्मणि द्वितीया इति, अतः बिलं प्राविशत् कार्यक्रममेतम् इत्येव प्रयोक्तव्यम्। बालः ज्वालाभिः आत्मानं रक्षितवान् इति दोषयुक्तः प्रयोगः, ज्वालाभ्यः इति वक्तव्यम्। अत्र रक्षणम् इष्यते, भीत्रार्थानां भयहेतुः इत्यनेन पञ्चमी भवति, अतः ज्वालाभ्यः इत्येव वक्तव्यम्। बहुधा अस्माभिः एवं दोषयुक्तं प्रयुज्यते, विद्वान् महदेववर्यस्य भाषणम् अस्ति अद्य, विदुषः इति प्रयोक्तव्यम्, विदुषः महादेववर्यस्य इति प्रयोक्तव्यम्। तथैव अत्र दोषयुक्तानि वाक्यानि बहूनि दत्तानि सन्ति, श्रीमता द्विवेदी महोदयेन इदानीं भाषणं क्रियते इति प्रयोक्तव्यम्, स्वामिनः दयानन्दवर्याः इति प्रयोक्तव्यम्, श्रीमत्या रमावर्यया इति प्रयोक्तव्यम्, चिरञ्जीविने भास्कराय इति प्रयोक्तव्यम्, विदुषीं सहनादेवीवर्याम् इति प्रयोक्तव्यम्। तथैव मधुमक्षिकाः छात्रेभ्यः दष्टवत्यः इति, अत्रापि छात्रान् इति वक्तव्यम्। यथा अस्माभिः पूर्वं दृष्टम् अत्र धातुः यः अस्ति दंशधातुः, सः सकर्मकः, सकर्मकस्य यत्कर्म छात्रपदम्, कर्मणः द्वितीया भवति, अतः छात्रान् इति प्रयोक्तव्यम्। ज्येष्ठः सर्वान् बहुमूल्यं मार्गदर्शनं कृतवान् इति उच्यते। अत्र सर्वेषां मार्गदर्शनम् इति वक्तव्यम्। अथवा सर्वान् मार्गम् उपादिशत् इति वा प्रयोक्तव्यम्। सः नाममात्रं कार्यदर्शी अस्ति इति बहुधा अस्माभिः प्रयुज्यते। नाममात्रेण इति वक्तव्यम्। अतः अत्र प्रकृत्यादिभ्यः उपसङ्ख्यानम् इति वार्तिकेन तृतीया भवति। अतः नाममात्रेण इति प्रयोक्तव्यम्। बाधस्य लेशमात्रमपि भयं नास्ति। भयस्य लेशमात्रम् इति प्रयोक्तव्यम्। अत्र भयस्य विशेषणत्वेन प्रयुक्तः लेशशब्दः अस्ति। सः लेशः एकदेशवासी। अतः भयस्य लेशः इति प्रयोक्तव्यम्। रमेशः स्वागतं, सुरेशः धन्यवादाञ्च समर्पितवन्तौ इति दोषयुक्तः प्रयोगः। स्वागतं व्याहृतवान्, धन्यवादान् समर्पितवान् इति पृथक् एव प्रयोक्तव्यम्। तस्मिन् उक्ते सति मया कार्यं स्मृतम् इति दोषयुक्तः प्रयोगः। तेन उक्ते सति इति प्रयोक्तव्यम्। यतः यस्य च भावेन भावलक्षणम् इति सूत्रेण प्रतिसप्तमी इति या प्रसिद्धा सप्तमी विधीयते। अतः अत्र उक्ते वाक्ये क्रियाद्वयमस्ति, स्मरणं कथनं च। अतः स्मरणं कथनानन्तरं जातम् इत्यतः तेन उक्ते सति इति प्रयोक्तव्यम्। तेन इत्यत्र तच्छब्दा तृतीया भवति कर्तृकरणयोः तृतीया इति सूत्रेण। तथैव स्वामिनि गृहं प्रविष्टवती चोराः धावितवन्तः इति उच्यते। स्वामिनि गृहं प्रविष्टवती इति प्रयोक्तव्यम्। यतः अत्र प्रवेशक्रिया ज्ञापिका, तदाश्रयः स्वामी। अत्र सप्तमी भवति यस्य च भावेन इति सूत्रेण। गृहशब्दः क्रियाश्रयः नास्ति इत्यतः कर्मणि द्वितीयाचिन्नेन द्वितीया भवति। ईदृशानि अन्यानि उदाहरणानि भक्ते देवं वन्दमाने, भक्तेन देवे वन्द्यमाने, बालेन पुस्तके पठिते, शिशुना स्वप्ने दृश्यमाने, बालेन स्नाने क्रियमाणे, रामेण सीतायां दृष्टायाम् इति। सम्मेलनं कथं भवितव्यम् इति सम्यक् चिन्त्यताम् इति दोषयुक्तः प्रयोगः। सम्मेलनेन इति प्रयोगः समीचीनः। गोलिका प्रकृत्य सैनिकेन दशजनाः मारिताः इति दोषयुक्तः प्रयोगः। गोलिकाभिः प्रहृत्य इति वा गोलिकाः प्रयुज्य इति वा प्रयोक्तव्यम्। भीमसमानाः केऽपि न सन्ति इति दोषयुक्तः प्रयोगः। कोऽपि नास्ति इत्येव वक्तव्यम्। माता बालाय वस्त्रं धारयति इति दोषयुक्तः प्रयोगः। बालेन वस्त्रं धारयति इति। एतावत्पर्यन्तं वयं विभक्त्यादयः इत्यस्मिन् पञ्चमे अध्याये बहूनि पदानि दृष्टवन्तः। इदानीम् अग्रिमम् अध्यायं वयं प्रविशामः, क्रियापदानि इति अग्रिमः अध्यायः। अग्रिमः अध्यायः क्रियापदानि इति. अस्मिन् अध्याये वयं कांश्चन पदानि पश्यामः, विशेष एतानि क्रियापदानि. तिङन्तानि कृदन्तानि अपि किञ्चित् पश्यामः. बहुधा अस्माभिः प्रमादः क्रियते. एषा लेखनी आपणे मिलति इति अस्माभिः प्रयुज्यते. मिलति इति अस्थाने, प्राप्यते इति वक्तव्यम्. मिलधातोः सङ्गमनमर्थः, सः अत्र न अपेक्षितः, अत्र प्राप्तिः इष्यते. अतः तदर्थकः धातुः एव प्रयोक्तव्यः, प्राप्यते इति वक्तव्यम्. ह्यः भवत्या सखी मां मिलितवती इति अस्माभिः बहुधा प्रयुज्यते. एषा लेखनी आपणे मिलति इति उदाहरणम् उक्तम्. अत्र मिलति इति अस्थाने, मिलधातुः यः अस्ति तस्य सङ्गमनम् इत्यर्थः. सङ्गमनम् इति अर्थः न युज्यते. एषा लेखनी आपणे मिलति इति प्रयोगः, लेखनी सङ्गमनम् इति अर्थस्य तत्र सङ्गमनम् इति अर्थः न युज्यते. अतः किं वक्तव्यं तस्य स्थाने? प्राप्यते इति वक्तव्यम्. एषा लेखनी आपणे प्राप्यते इति. अतः अत्र मीलधातुः न युक्तः इत्यतः प्राप्यते इति वक्तुं शक्नुमः. एतां लेखनीं भवान् आपणे प्राप्तुमर्हति इति वक्तुं शक्नुमः. ह्यः भवत्याः सखी मां मिलितवती, तत्र मया इति प्रयोक्तव्यम्, यतः मिलधातुः अकर्मकः. अतः अकर्मकः इत्यनेन मां मिलितवती इति प्रयोगः न समीचीनः. मया मिलितवती इत्येव प्रयोक्तव्यम्. तथैव अहं श्वः मिलिष्यामि, रमेशः सप्ताहानन्तरं पत्रं लिखिष्यति इति दोषयुक्तः प्रयोगः. अहं श्वः मेलिष्यामि, रमेशः सप्ताहानन्तरं पत्रं लेखिष्यति इति वा प्रयोक्तव्यम्. ततः आरभ्य किम् अन्विष्यति भवान् इति दोषयुक्तः प्रयोगः. अन्विष्यति इति शुद्धः प्रयोगः. आवयोः पुनः मिलनं कदा भवेत् इति अस्माभिः दोषयुक्तः प्रयोगः क्रियते. मेलनम् इति वक्तव्यम्. कदाचित् मिलनमपि शुद्धमिति अत्र ग्रन्थेषु अस्माभिः दृश्यते, किन्तु मेलनम् इत्येव शुद्धः शिष्टश्च प्रयोगः। अपघातवार्तां श्रुत्वा को वा न खिद्यति इति दोषयुक्तः प्रयोगः। खिद्यते इति प्रयोक्तव्यम्। तौ सहोदरौ वैरिणौ इव युद्धतः इति अस्माभिः प्रयुज्यते। युद्धेते इति प्रयोक्तव्यम्। युधधातुः सम्प्रहरणम् इति अर्थं गमयति। द्विपादिगणीयः अयम् आत्मनेपदि, अतः युध्येते इति वक्तव्यम्। पिता दण्डेन बालान् भापयति इति प्रयुज्यते। भाययति इति प्रयोक्तव्यम्। भी धातुः अत्र अस्ति। सः भी धातोः, तस्मात् भी धातोः निच् कृतः। पिता दण्डेन बालान् भाययति। इति प्रयोगः समीचीनः। छात्राः अध्यापकस्य वाक्यम् उच्चरन्ति। अत्र उच्चारयन्ति इति शुद्धः प्रयोगः। रामायणे वयं किष्किन्धः काण्डे द्रष्टुं शक्नुमः, उच्चारयति कल्याणीं वाचं सदेहारिणीम् इति प्रयोगः रामायणे अस्ति। अतः छात्राः अध्यापकस्य वाक्यम् उच्चारयन्ति इति प्रयोक्तव्यम्। माता अन्नं परिवेषयति इति प्रयोगः अस्माभिः क्रियते। परिवेषयति इति अयं दोषयुक्तः नास्ति। अत्र स्वार्थे निच आश्रितः। विषुद्र इति धातुः, सः जहोत्यादिः, परि इति उपसर्गः, तस्य व्याप्तिः इति अर्थः। वेवेष्टि वेविष्टः वेविशति इति भवति भवन्ति रूपाणि। परिवेषणं नाम किम् इत्यस्य अर्थः सिद्धान्तकौमुद्यां बालमनोरमायाम् उक्तः अस्ति। भोजनपात्रे ओदन अपूपादि भोज्यद्रव्याणां स्थापनं परिवेषणम् इति। यमो परिवेषणे इति धातोः व्याख्यानावसरे। अतः माता अन्नं परिवेषयति इति प्रयोगः न दोषाय। अयं प्रयोगः शास्त्रसम्मतः अपि अस्ति इति अस्माभिः अवगन्तव्यम्। भक्तः भगवन्तं प्रार्थयति इति प्रयोगः बहुधा क्रियते। प्रार्थयते इति प्रयोगः प्रशस्ततरः। तत्र सिद्धान्तकौमुद्यां प्रश्नः कृतः, कथं तर्हि प्रार्थयन्ति शयनोत्थितं प्रियाः इति रघुवंशप्रयोगः। लिखितमस्ति किन्तु महाकाव्ये तादृशः प्रयोगः न दृश्यते। प्रार्थयन्त इत्येव सर्वत्र पाठः दृश्यते। अतः प्रार्थयते इति प्रयोगः प्रशस्ततरः। मन्दहासपूर्वकम् आशीर्वदति गुरुः इति अस्माभिः दोषयुक्तः प्रयोगः क्रियते। आशीर्वदति इति तिङन्तरूपं नास्ति, आशिषं वदति इति प्रयोक्तव्यम्। आशीर्वादः इति शब्दः अस्ति इति अस्माभिः भ्रान्त्या आशीर्वदति इति प्रयुज्यते, तादृशं रूपं नास्ति। अतः आशिषं वदति इति प्रयोगः भवितुम् अर्हति। यदि आतंकवाद विषये प्रतीकारः न चिन्त्यते तर्हि जनाः प्रतिदिनं मरिष्यन्ति इति अस्माभिः प्रयुज्यते। मरिष्यन्ति इति अयं प्रयोगः न दोषाय। प्राणत्यागार्थकः मृङ् धातुः आत्मनेपदी। किन्तु म्रियते लुङ् लिङ्गोश्च इति लुङ् लिङ् विषये आत्मनेपदित्वं विहितम्। तः मरिष्यन्ति इति प्रयोगः। आपणिकः वस्तूनि विक्रीणाति इति दोषयुक्तः प्रयोगः क्रियते। विक्रीणीते इति आत्मनेपदिरूपं प्रयोक्तव्यम्। यद्यपि क्री धातुः उभयपदि तथापि वि इत्यस्य उपसर्गस्य योगे नित्यम् आत्मनेपदि। परिव्यव्यभ्य क्रियः इत्यनेन आत्मनेपदित्वं विहितम्। अन्यदेकं प्रसिद्धम् अस्माभिः वाक्यं बहुधा पत्रिकासु अपि दृष्टं स्यात्, श्रम एव जयते इति। दोषयुक्तः प्रयोगः सः जयति इति प्रयोक्तव्यम्। जी धातुः जय अर्थकः परस्मैपदी एव, अतः जयति इति शुद्धम्। सत्यमेव जयते इत्यत्र जी धातोः आत्मनेपदित्वं दृष्ट्वा अथवापि जयते इति प्रयोगः क्रियते। सत्यमेव इति तु छन्दसं वाक्यम्, श्रमः एव इति लौकिकं वाक्यम्, अतः श्रमः एव जयते इति अपशब्दः जयति इत्येव प्रयोक्तव्यम्। वयम् श्वः प्रस्थास्यामः इति दोषयुक्तः प्रयोगः बहुधा क्रियते। प्रस्थास्यामहे इति प्रयोक्तव्यम्। स्था धातुः गतिनिवृत्त्यर्थकः परस्मैपदी एव न तु आत्मनेपदी। समवप्रविभ्यस्तः इति सूत्रेण सम् अवप्रवि इति उपसर्गैः युक्तः आत्मनेपदित्वं प्राप्नोति। अतः अत्र प्रस्थास्यामहे इति रूपं भवति। मया न कदापि असत्यपक्षः आश्रीयते इति बहुधा अस्माभिः प्रयुज्यते। आश्रीयते इति दीर्घः प्रयोक्तव्यः। श्री धातुः सेवार्थकः यक् प्रत्ययं प्राप्नोति, ततः अकृत् सार्वधातोयोः दीर्घः इति सूत्रेण दीर्घं प्राप्नोति। तदा आश्रीयते इति रूपम्। अहो अत्र मशकाः दंशन्ति माम्। अहो मशकानां दंशनं दशनं सोढुं न शक्यम्। अत्र उभयमपि साधु, दंशति दशतीति दंशनं दशनम् इति उभयमपि साधु। पाचकः पाकाय अग्निं प्रज्वालयति. प्रज्वालयति इति रूपं न साधु न असाधु. ज्वलधातोः रूपद्वयं ज्वलयति ज्वालयति इति. उपसर्गे तु नित्यं मित्त्वं मितां ह्रस्वः इति ह्रस्वः प्रज्वलयति इति. प्रज्वालयति इति रूपं तस्य न भवति. प्रज्वालयति इति रूपं तु लोके दृश्यते. तत्र कौमुद्याम् उच्यते कथं प्रज्वालयति इति. तस्य अर्थः उक्तः प्रज्वलनं प्रज्वालः भावे खञ् प्रत्ययः प्रज्वलनं करोति इत्यर्थे णिच् भवति प्रज्वालि इति निजन्तं ततः रूपे प्रज्वालयति इति रूपम् इति सिद्धान्तकौमुद्याम् समर्थितमस्ति. अतः प्रज्वालयति इति शुद्धमेव रूपम्. पाचकः पाकाय अग्निं प्रज्वालयति इति शुद्धं रूपम्. सः सर्वदा विना कारणं मां तर्जयति इति वाक्यं प्रयुज्यते. तर्जयति इति प्रयोगः न असाधुः. तर्जधातुः आत्मनेपदी अत्र अतः तर्जयते इति रूपम्. यथा पूर्वस्मिन् उदाहरणे दर्शितं निजन्तात् रूपं भवति तर्जयति इति. एवमेव भर्त्सयति इत्यपि. अतः तर्जयति भर्त्सयति इति परस्मैपदप्रयोगाः दोषयुक्ताः न. मित्रा पुनर्मिलामः आपृच्छामि भवन्तम् इति प्रयुज्यते. अत्र आपृच्छे इति प्रयोक्तव्यम्. यतः प्रच्छधातुः आङ् उपसर्गयोगे आत्मनेपदी आत्मनेपदित्वं प्राप्नोति. आङि नृप्रच्छोः पृच्छयोः इति वार्तिकम्. अतः आपृच्छते इति रूपम्. प्राचीनप्रयोगाः अपि सन्ति. आपृच्छत्वप्रेयसममुम् इति मेघदूते यावन्मातरम् आपृच्छे इति रामायणे इत्येवम् अस्माभिः बहवः शब्दाः अस्मिन् क्रियापदानि इत्यस्मिन् अध्याये दृष्टाः. अग्रिमासु कक्षासोऽपि क्रियापदानि चित्वा वयम् अग्रे गच्छामः. एतां कक्षाम् इदानीम् अत्र समापयामः. सर्वेभ्यः धन्यवादाः.